एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सभामुखस्य देवराज घिमिरेविधस्य प्रधानमन्त्रिणा सह प्रमुखाणाम् त्रयाणाम् दलानाम् शीर्षनेतृणाम् च मध्ये ह्यो विहिते विमर्शने संसदीय समितिनाम् सभापतिनाम् शीघ्रम् चयनस्य विषये सहमतिर्धृता वर्तते। सिंहप्रासादस्थे सभामुखस्य कार्यकक्षे सम्पन्ने विमर्शने समितिनाम् सभापतिनाम् चयनस्य विषयम् शीघ्रम् निर्णेतुम् दलानाम् शीर्षनेतारः सहमताः सन्तीति सभामुख देवराज घिमिरे अज्ञापयत। सभामुख घिमिरे संसदीय गतिविधिनाम् प्रभावकारितायै चिराय समितिनाम् सभापतिनाम् चयनाभावस्य अवस्थायाम् उत्पन्नायाः परिस्थितेर् विषये विमृष्टम् एवं शीघ्रम् विषयममुम् निर्णेतुम् शीर्षनेतारः सहमताः सन्तीति अगदत्। उपवेशस्य पश्चात् विधिन्याय संसदीय विषय मन्त्री धनराज गुरूङ शीर्षनेतृणाम् मध्ये संसदीय समितिनाम् सभापतिनाम् शीघ्रातिशीघ्रम् चयनाय सहमतिर्धृतेति असूचयत। सभामुखेन घिमिरेभिधेन आकारिते विमर्शनोपवेशे प्रधानमन्त्री माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्ड प्रमुख विपक्षी दलस्य नेता नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा विधि न्याय संसदीय विषय मन्त्री धनराज गुरूङ च सहभागिन आसन्। मन्त्री परिषद उपवेशेन विलोपितानाम् व्यक्तिनाम् अनुसन्धान सत्य निरूपण मेलायोगस्य कार्यविधिम् आगामिनम् पौषमासान्तम् यावत् वर्धयितुम् निर्णीतम् वर्तते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य उपविष्टेन तेनोपवेशेन आयोगस्य कार्यविधेः वर्धनाय बाधा व्यवधान निवारणादेशम् प्रकाशयितुम् निर्णीतमिति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा अज्ञापयत। एवमेव उपवेशेन सर्वकारीय सेवायाः रिक्ते राजपत्रांकित विशिष्ट श्रेण्याः सचिवपदे घनश्याम उपाध्यायस्य पदोन्नयनं विधातुं निर्णीतमिति मन्त्री शर्मा असूचयत। राष्ट्रिय सभायाम् एतद् विक्रम वर्षीय आर्थिक विधेयकम् राष्ट्र ऋणोत्थापन विधेयकम् च प्रस्तुते स्तः। राष्ट्रिय सभाया गतदिवसीयोपवेशे सचिव डा सुरेन्द्र अरियाल प्रतिनिधि सभात ससन्देशं प्राप्त विधेयक द्वयमिदं प्रास्तौत। उपवेशे एतद् वैक्रमाब्दस्य विनियोजन विधेयकस्य अन्तर्गतानि विभिन्न मन्त्रालयगत शीर्षकाणि आधृत्य विमर्शनम् अभवत्। उपवेशे एतस्य विधेयकस्य अन्तर्गतानां भूमि व्यवस्था सहकारी विपन्नता निवारण भौतिक पूर्वाधार यातायात संघीय विषय सामान्य प्रशासन संस्कृति पर्यटन नारीको उड्डयन मन्त्रालयानां विभिन्नानि शीर्षकाणि विमृष्टानि आसन्। विमर्शने सांसदाः गोपाल भट्टराई रामचन्द्र राई शारदादेवी भट्ट सोनाम गेलझेन शेर्पा च व्यय न्यूनीकरणस्य प्रस्तावम् प्रस्तुवन्। तत्पूर्वम् शून्य समये सांसदाः सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। सांसदाः अविरल वर्षाणाम् कारणेन अवरूद्धस्य पूर्व पश्चिम राजमार्गस्य अन्तर्गते नारायणगढ मुङलिङ मार्गखण्डे यात्रीणाम् सहजतया गमनागमनस्य प्रबन्धनस्य जलविप्लव भूस्खलनाभ्याम् प्रभावितानाम् क्षेत्राणाम् निवासिभ्य उद्धार सहायता क्षतिपूर्तिनाम् व्यवस्थापनस्य धान्य कृषे रासायनिक मलस्य व्यवस्थायाश्च विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। राष्ट्रिय सभायाः अपरोपवेशः अद्य दिवा सार्ध द्विवादने भसति। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ कथयति स्वच्छीकरणम् मानवीय आवश्यकता वर्तते। गृहमन्त्रालयेन आयोजितस्य आधारभूत स्वच्छता सम्बद्धस्य दश दिनात्मकस्य प्रशिक्षणस्य समापन कार्यक्रमम् पूर्वे द्युः काष्ठमण्डपे सम्बोधयन् गृहमन्त्री श्रेष्ठ स्वच्छीकरणम् मानवीय जीवनस्य महत्वपूर्णम् कार्यमस्तीत्यतः स्वच्छीकरण कार्यम् कुर्वन्तो जनाः निम्नस्तरीयाः भवन्ति निम्नस्तरैरेव स्वच्छीकरणम् विधेयमिति अनुचितम् चिन्तनम् केनापि न विधातव्यमिति उदैरयत। किमपि कार्यम् निम्न महद् वा न भवतीति चर्चयन् मन्त्री श्रेष्ठ स्वच्छीकरण कार्यम् कुर्वद्भिः जनैः स्वयमेव आत्मानम् निम्नस्तरीयः न चिन्तनीयः इति प्रावोचत। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य स्वच्छो नेपालः स्वस्थाः नेपालिनः इत्यभियानम् सर्वकारस्य नीति कार्यक्रमेषु समाविश्य स्वच्छीकरणेन सम्बद्धा नीति निर्मिता वर्तते। सर्वकारेण महामारीयारूपेण पशु चतुष्पादेषु प्रसृतस्य लम्पिस्क्रीन रोगस्य नियन्त्रणाय सर्वप्रकारकाणि स्रोत साधनानि प्रदत्तानि सन्तीति ज्ञापितं वर्तते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड ह्य पशुपक्षी मन्त्रिणं डाक्टर बेदुराम भूषालं मन्त्रालयस्य उच्चै अधिकारिणश्च आवश्यकं निरदिशदिति प्रधानमन्त्रिणा सचिवालयो ज्ञापयति। प्रधानमन्त्रिणा प्रचण्डेन प्रभावकारी रूपेण स्वास्थ्यकर्मिण परिचालयितुं टीकाकरणस्य आपूर्तिं वर्धयितुं तत्कालं टीकाकरणाधानाय जनशक्तिं यथावश्यकं प्रबन्धयितुं च सम्बद्धाः अधिकारिणः स्पष्टं निर्दिष्टाः सन्ति। सर्वकारेण अधुनावधि सप्तलक्षाणां सप्तत्रिंशत्सहस्राणां च मात्राणां टीकाकरणानाम् आयातं विधाय एतानि सप्तसु एव प्रदेशेषु प्रापितानि सन्ति। पशुसेवा विभागस्य अनुसारेण लक्ष्ये द्वासप्तत्यां सहस्रेषु अष्टाविंशत्यधिक शते च पशु चतुष्पादेषु टीकाकरणम् आयितं वर्तते। विभागस्य महानिर्देशकस्य डाक्टर सम्झना कुमारी काफ्ले इत्यस्याः अनुसारेण लम्पिस्किन रोगः गोसु मैशिषु च विषाणोः कारणेन व्यापृतो महामारी रूपो व्याधिर वर्तते। पूर्वं केवलं अफ्रीका महादेशे एव सीमितः रोगोऽसौ यूरोप महादेशतः बंगलादेश चीन भारत देशेषु दर्शनानन्तरं प्रथमवारं नेपाले सप्तसप्तत्यधिक द्विसहस्रतम वैक्रमाब्दस्य आषाढ मासे मोरङ जनपदस्य सुन्दर हरैंचा नगरपालिकायां गवि दृष्टः आसीत्। वर्तमान आर्थिक वर्षे लम्पिस्किन रोगस्य आराष्ट महामार्या रूपेण विस्तरण पूर्वकं मनाङ जनपदं विहाय सकले जनपदेषु संक्रमणं पुष्टिभूतमिति विभागोऽसौ सूचयति। नेसपा नाम्ना नेपाल समाजवादी दलेन समाज समान नीति सिद्धान्त विचारवद्भिः दलैः समूहैश्च सह संवादं सहकार्यं च कृत्वा संयुतिः निर्मास्यते। नेसपा केन्द्रीय समिते ह्य उपविष्टस्य उपवेशस्य पश्चात् प्रकाशितायं विज्ञप्तौ एतदर्थं दलेन अस्मादेव मासाद् अभियानं सञ्चाल्यते इति ज्ञापितमस्ति। आगामी पौषमासं यावत् सञ्चालयिष्यमाणस्य अभियानस्य विस्तारितं स्वरूपं सार्वजनिक कुर्वता नेसपा दलेन एतद् विक्रमवर्षीय संगठन निर्माण विस्ताराभियानस्य अन्तर्गतम् अग्रगामी शक्त्या बृहत् ध्रुवीकरणस्य माध्यमेन देशे नूतन वैकल्पिक शक्तिं निर्मातुं निरन्तरं प्रयासः विधीयते इति ज्ञापितमस्ति। एवमेव अभियानस्य माध्यमेन दलं वैचारिक रूपेण प्रगतिशीलं लोकतान्त्रिकं समाजवादी विकल्पस्य च रूपेण संस्थापयिष्यते इति दलेन ज्ञापितमस्ति। जनता समाजवादी दलेन नेपाले जायमानस्य जातीय विभेदस्य विरूद्धे सञ्चेतना कार्यक्रम सञ्चाल्यते। सम्प्रत्येव जुम्ला जनपदे अन्तर्जातीय विवाहस्य विरूद्धे गृहे अग्निदाहस्य दाङ जनपदे निम्न जातीयतायाः कारणेन भाटक गृहात् निष्कासनस्य च घटनायाः विरूद्धे सञ्चेतना कार्यक्रम सञ्चाल्यमानो वर्तते इति जसपा दलीय केन्द्रीय प्रचार विभागस्य प्रमुख पूर्ण बस्नेत अज्ञापयत्। देशस्य विभिन्नेषु स्थानेषु वर्षायामजा मध्यमतो अधिकमात्रायाः वृष्टिः जायमाना वर्तते। नैरन्तर्येण जायमानायाः वृष्टेः कारणेन कोशीनद्यां तिनाउ नद्यां च जलस्य प्रवाह संकटस्तरं प्राप्तो वर्तते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य प्रवक्तुः ध्रुवबहादुर खड्गा विदस्य अनुसारेण स्याङ्जा अर्घाखाँची रूपन्देही पाल्पा जनपदाः जलविप्लवस्य कारणेन सावधानतायाः स्तरे प्राप्ताः सन्ति। बागलुङ कास्की तनव जनपदेषु जलविप्लव भूस्खलनयोः उच्च संकटः विद्यमानोऽस्तीत्यतः आवश्यक सावधानताम् अवलम्बितुं तत्रत्याः जनाः प्राधिकरणेन समसूचिताः सन्ति। जलवायु विज्ञान विभागे नापि कोशी नद्यां जलस्य स्तर वर्धितोऽस्ति। सप्तरी सिराहा धनुषा जनपदेषु अधिकमात्रायां वर्षाणां सम्भावना च वर्तते इत्यतः तत्रत्याः जनाः सावधानीकृताः वर्तन्ते। सर्वकारेण षड्लक्षेभ्य पञ्चदशसहस्रेभ्य एकषष्ट्यधिक शते च गृहपरिवारेभ्य विपन्नतायाः परिचयपत्रं प्रदत्तं वर्तते। सर्वकारेण एतेषां परिवाराणाम् आयस्य व्ययस्य च स्रोतसः गृहस्य अवस्थायाः जीवनशैल्याः शिक्षावस्थायाश्च सूचकाङ्कान् अधीत्य अति मध्यम सामान्य विपन्नानां रूपेण वर्गीकरणं विधाय 49 जनपदेषु विपन्नतायाः परिचयपत्रं प्रदत्तम् अस्तीति भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्रालयेन ज्ञापितं वर्तते। इति समाचारः।